हेलो
सर, आप सुनिए ना।
हाँ, बेटी बेटी से लाई वो डे थे लेवर लिखे इंडिया ले आऊँ ना।
विजड्रो ना।
हाँ।
विजड्रो।
वो डे थे लेवर।
अश्कांडे।
हाँ।
हेलो।
ऐसा मामले।
मालशी में लड़ा किकर था।
हाँ, बेच बेच के लाए।
शी।
वो रहते ले फिर गंजाल साला लग सकते हैं इंडिया ले।
इंडिया ले?
हाँ।
मैं डरा मिले स्टास क्या पा?
हाँ, बेच बेच के लाए वो रहा इंसान। ते ले फिर।
हेलो।
ऐसा मामले।
मैं डरा मिले आ ये तो करा रहता हूँ।
हाँ, वो रहते ले फिर साला लग सकते हैं इंडिया ले।
शी ते ले फिर ना ये निकल ये बेच बेच कुतर አንድ ነው ሁለቱም አካውንቱ?
አዎ።
እሺ ምንድን ነው የሚል ስታስገባ ታዲያ?
እንቢ አለኝ አገባ
እኮ ምንም ጽሑፍ አያመጣልን ስታስገባ ቁጥርህን?
ሪቻርጅ ምናምን ይላል በእንግሊዝኛ ዛ
እስኪ ስክሪንሾት አድርግና ቴሌግራም ላይ ትልክልኛለህ?
በሌላ ሰው ነው የምታወጡ ከሆነ ትንሽ ስልክ ነው ያለው
እኮ ማለት አሁን ልክ እንደዛ ስታስገባ የሚልህን ነገር ፎቶ ታነሳውና ቴሌግራም ላይ ቼክ ላድርግልህ።
እስካሁን እንደዛ ያለኝ ነበር ደውዬ ስልክ ቁጥሩን ጠይቆ ያስገቡልኝ ነው። እስካሁን
ያስገቡልኝ ነው?
አዎ።
ምን ነው ያስገቡልክ? ዊዝድሮ ነው ዲፖዚት ነው ያደረከው?
አዎ፣ ዊዝድሮ ዊዝድሮ።
ኦኬ። እሺ፣ ቤስት ቤት ቁጥርን ንገረኝ።
09
እሺ
15
15
15
2015 እሺ 15
47
እሺ
52
ስንት ብር ነበረ?
2000
እሺ ዴሊቨር ቁጥር 15 15
15 15 ዴሊቨር።
እሺ ከዛ
47 52
እሺ አሁን ገብቷል። ቼክ ማድረግ ይችላሉ። እሺ እሺ፣ ለደወሉ እናመሰግናለን። መልካም ምሽት።